ओम नमो भगवते वासुदेवाय। अथ तृतीयोऽध्यायः। नारद उवाच, हिरण्यकशिपुराजन् न चेयमजरामरम् आत्मानमप्रतिद्वन्द्वमेकराजं व्यथित्सत। सतेपे मन्दरद्रोण्यां तपः परमदारुणम्, ऊर्ध्वबाहुर्नभो दृष्टिः पादाङ्गुष्ठाश्रितावनिः। जटादिधिभीरेजे संवर्तार्क इवांशुभिः। तस्मिन् तपस्तप्यमाने देवास्थानानि भेजिरे। तस्य मूर्ध्ना समुद्भूतः सधूमोऽग्निस्तपोमयः। तिर्यगूर्ध्वमधो लोकान् तपद्विश्वगीरितः। चुक्षुभुर्नद्युदन्वन्तः सद्वीपादृश्यचालभूः। निपेतुः सग्रहास्तारा जज्वलुश्च दिशोदश। तेन तप्ता दिवम् त्यक्त्वा ब्रह्मलोकम् ययुः सुराः। धात्रे विज्ञापयामासुर्देवदेव जगत्पते, दैत्येन्द्रतपसा तप्ता दिवि स्थातुम् न शक्नुमः। तस्य चोपशमम् भूमन् विधेहि यदि मन्यसे। लोकानयामन्नङ्क्ष्यन्ति बलिहारास्तवाभिभूः। तस्यायम् किल सङ्कल्पश्चरतो दुश्चरम् तपः। श्रूयताम् किम् न विदितस्तवाथापि निवेदितः। सृष्ट्वा चराचरमिदम् तपोयोगसमाधिना। अध्यास्ते सर्वधिष्ण्येभ्यः परमेष्ठी निजासनम्। तदहम् वर्धमानेन तपोयोगसमाधिना। कालात्मनोऽस्य नित्यत्वात् साधयिष्ये तथात्मनः। अन्यथेदम् विधास्येह मयथा पूर्वमोजसा। किमन्यैकालनिर्धूतैः कल्पान्ते वैष्णवादिभिः। इति सुश्रुमनिर्बन्धम् तपः परममाच्छितः। विदत्स्वानन्तरम् युक्तम् स्वयम् त्रिभुवनेश्वर। तवासनम् द्विजगवाम् पारमेष्ठ्यम् जगत्पते। भवाय श्रेयसे भूत्यै क्षेमाय विजयाय च। इति विज्ञापितो देवैर्भगवानात्मभूर्नृप परितो भृगुदक्षाद्यैर्ययौ दैत्येश्वराश्रमम्। न ददर्श प्रतिच्छन्नम् वल्मीकतृणकीचकैः पिपीलिकाभिराचीर्णमेतस्त्वम् मांसशोणितम्। तपन्तम् तपसा लोकान्यथा भ्रापिहितम् रविम्। विलक्ष्य विस्मितप्राह प्रहसन् हंसवाहनः। ब्रह्मोवाच, उत्तिष्ठोत्तिष्ठ भद्रम् ते तपः सिद्धोऽसि काश्यप। वरदोऽहमनुप्राप्तो व्रियतामीप्सितो वरः। अद्राक्षमहमेतत्ते हृत्सारम् महदद्भुतम्। दंशभक्षितदेहस्य प्राणायस्तिषुषेरते। नैतत्पूर्वर्षयश्चक्रुर्न करिष्यन्ति चापरे। निरम्बुर्धारयेत् प्राणान् को वै दिव्यसमाशतम्। व्यवसायेन तेनेन दुष्करेण मनस्विनाम्। तपोनिष्ठेन भवता जितोऽहम् दितिनन्दन। ततस्ताशिषः सर्वात् ददाम्यसुरपुङ्गव। मर्त्यस्य ते अमर्त्यस्य दर्शनम् नाफलम् मम। नारद उवाच इत्युक्त्वादिभवो देवो भक्षिताङ्गम् पिपीलिकैः। कमण्डलुजलैनोक्षद्दिव्येनामोघराजसा। सतत्कीचकवल्मीकात् सह ओजो बलान्वितः। सर्वावयवसम्पन्नो वज्रसंहननो युवा। उत्थितस्तप्त हेमाभो विभावसुरिवैधसः। सनिरीक्ष्याम्बरे देवम् हंसवाहमवस्थितम्। न नाम शिरसा भूमौ तद्दर्शनमहोत्सवः। उत्थाय प्राञ्जलि प्रह्व ईक्षमाणो दृशा विभुम्। हर्षाश्रुपुलकोद्भेदो गिरागद्गदया गृणात्। हिरण्यकशिपुरुवाच, कल्पान्ते कालसृष्टेन योन्धेन तमसावृतम्। अभिव्यनग्जगदिदम् स्वयम् ज्योतिः स्वरोचिषा। आत्मना त्रिवृता चेदम् सृजत्यवति लुम्पति। रजसत्त्वतमो धाम्ने पराय महते नमः। नमाद्याय बीजाय ज्ञानविज्ञानमूर्तये। प्राणेन्द्रियमनोबुद्धिविकारैर्व्यक्तिमीयुषे। त्वमीशिषे जगतस्तस्थुषश्च प्राणेन मुख्येन पतिः प्रजानाम्। चित्तस्य चित्तेर्मन इन्द्रियाणाम् पतिर्महान् भूतगुणाशयेषः। त्वम् सप्ततन्तून् वितनोषि तन्वात्रय्या चातुर्होत्रकविद्यया च। त्वमेक आत्मात्मवतामनादीरनन्तपारः कविरन्तरात्मा। त्वमेव कालो निमिषो जनानामायुर्लवाद्यावयवैक्षिणोऽसि। कूटस्थात्मा परमेष्ठजो महान्स्त्वम् जीवलोकस्य च जीवात्मा। त्वत्तः परम् न परमप्यनेज देजच्च किञ्चिद् व्यतिरिक्तमस्ति। विद्याः कलास्ते तनवश्च सर्वा हिरण्यगर्भोऽसि बृहत्त्रिपृष्ठः। व्यक्तम् विभो स्थूलमिदम् शरीरम् येनेन्द्रियप्राणमनोगुणान्स्त्वम्। भुङ्क्षे स्थितो धामनिपारमेष्ठ्य अव्यक्त आत्मा पुरुषः पुराणः। अनन्ताव्यक्तरूपेण येनेदमखिलम् ततम्। चिदचिच्छक्तियुक्ताय तस्मै भगवते नमः। यदि दास्यस्यभिमतान् वरान्मे वरदोत्तम। भूतेभ्यस्त्वद्विसृष्टेभ्यो मृत्युर्मा भून्मम प्रभो। नान्तर्बहिर्दिवा नक्तमन्यस्मादपि चायुधैः न भूमौ नाम्बरे मृत्युर्न नरैर्न मृगैरपि व्यसुभिर्वासुमद्भिर्वासुरासुरमहोरगैः अप्रतिद्वन्द्वताम् युद्धे ऐकपत्यम् च देहिनाम् सर्वेषाम् लोकपालानाम् महिमानम् यथात्मनः तपोयोगप्रभावाणाम् यन्नरिष्यति कर्हिचित्। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् सप्तमस्कन्धे हिरण्यकशिपोर्वरयाचनम् नाम तृतीयोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।